अथ गजेन्द्रमोक्षस्तोत्रम् श्रीशुक उवाच एवं व्यवसितो बुद्ध्या समाधाय मनोरथे जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम् गजेन्द्र उवाच ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् पुरुषायादिबीजाय परेशायाभिधीमहि यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयं भुवम् यस्वात्मनिदं निजमाययार्पितम् क्वचेद्विभातं क्वचतत्तिरोहितम् अवेददृक्साक्षुभयं तदीक्षते सयात्ममूलोऽवतु मां परात्परः कालेन पञ्च त्वमिते सुकृष्णशो लोकेषु पालेषु च सर्वहेतुषु तमस्तदासेद्गहनं गभीरम् यस्तस्य पारे विविराजते विभो न यस्य देवारिषयापदं दिदुर् जन्तो पुनः कोऽर्हति गन्तुमेरितुम् यथा नटस्याकृतिभिर्विचेष्टतो दुरात्ययानो क्रमणः समावतो दिद्रक्षभो यस्य पदं सुमङ्गलम् विमोक्तसङ्गमुनयः सुसाधवः चरन्त्यलोकाव्रतमाव्रणं वने भूतात्मभूताः स्वरदाः समे गतिः न वेद्यते यस्य च जन्म कर्म वा न नाम रूपे गुणदोष एव वा तथापि लोकाप्रयसंभवाय यः स्वमाययातान्यनुकालमृच्छते तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये अरूपायोरुरूपाय नमाश्चर्यकर्मणे नम आत्मप्रदीपाय साक्षिणे परमात्मने नमो गिरां विदुराय मनसश्चेतसामपि सत्त्वेन प्रतिलव्याय नैष्कर्मेण विपश्चिता नमः कैवल्यनाथाय निर्वाणसुखसंविदे नमः शांताय घोराय मूढ़ाय गुणधर्मिणे निर्विशेषाय साम्याय नमो ज्ञान घनाय च क्षेत्रज्ञाय नमस्तोभ्यं सर्वाध्यक्षाय साक्षिणे पुरुषायात्ममूलाय मूलप्रकृतये नमः सर्वेन्द्रियगुणद्रष्टे सर्वप्रत्ययहेतवे असताच्छाय योक्ताय सदा भासाय ते नमः नमो नमस्ते खिल कारणाय निष्कारणाय अद्भुतकारणाय सर्वागमाम्नाय महार्णवाय नमो पवर्गाय परायणाय गुणारणे चन्नचिदुष्मपाय तच्चो भवेस्फोर्जितमानसाय नैष्कर्म्यभावेन विवर्जितागमत् स्वयं प्रकाशाय नमस्करोमि मादृक्प्रपन्न पशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोलयाय स्वांसेन सर्वतनुभ्रन्मनसि प्रतीत प्रत्याग्रशे भगवते ब्रहते नमस्ते आत्मात्मजाप्तग्रहवेत्तजने सुसक्ते दुष्प्रापणाय गुणसंगविवर्जिताय मुक्तात्मविश्वहृदये परिभाविताय ज्ञानात्मने भगवते नमः ईश्वराय यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति किं त्वा शिशोरात्यपि देहमव्ययम् करोतु मेदाप्रदयो विमोक्षणम् एकान्तिनो यस्य न कञ्चनार्थम् वाञ्छन्ति ये वै भगवत्प्रपन्नाः अद्यद्भुतं तच्चरितं सुमङ्गलम् गायन्त आनन्दसमुद्रमग्नाः तमक्षरं ब्रह्म परं परेश मव्यक्तमाध्यात्मिकयोगगम्यम् अतीन्द्रियं सूक्ष्ममिवातिदूरा मनन्तमाद्यं परिपूर्णमीडे यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः नाम रूप विभेदेन फलव्या च कलया कृताः यथार्चिषोऽग्ने सवितुर्गवस्तयो निर्यान्ति संयान्त्यसकृत्सरोचिषः तथा यतोऽयं गुणसंप्रवाहो बोद्धिर्मनःखानि शरीरसर्गाः स वै न देवा सुरमार्त्यतिर्यां न स्त्री न षण्ढो न पुमान् न जन्तुः नायं गुणकर्म न सन्न चासन् निषेधशेषो जयतादशेषः जिजीविषेनाहमिहामुयाके मन्तर्बहिश्चाव्रत ये भयोन्या इच्छामि काले ननयस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम् सोऽहं विश्वस्रजं विश्वमविश्वं विश्ववेदसम् विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् योगरन्ध्रितकर्माणो हृदियोगविभाविते योगिनोऽयं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम् नमो नमस्तोऽभ्यमसह्यवेग शक्तित्रयाखिलधिगुणाय प्रपन्नपालाय दुरन्तसक्तये कदेन्द्रियाणामनवाप्यवर्त्मने नायं वेदस्वमात्मानं यच्छक्त्याहं धियाहतम् तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम् श्रीशुक उवाच एवं गजेन्द्रमुपवर्णितनिर्विशेषम् ब्रह्मादयो विविधलिङ्गविदाभिमानाः नैते यदोपसपूर्णखिलात्मकत्वात् तत्राखिलामरमयो हरिराविरासीत् तं तद्वदार्थमुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजयैः सह संस्तुभिः छन्दोमयेन गरुडेन समुह्यमानस् चक्रायुधोऽभ्यगमदासुयतो गजेन्द्रः सोऽन्तःसरश्चरुबलेन गृहीतयार्तो दृष्ट्वा गरोत्मतिहरिं क उपात्तचक्रम् उच्छेप्य साम्भुजकरं गिरमाहकृच्छान् नारायणाखिलगुरो नमस्ते। तांबे क्षपीडितमजा सहसावतीर्या सग्राहमासु सरसः कृपयोज्जहार ग्राहद्विपाटितमुखाद्धरिणा गजेन्द्रम् सम्पश्यताम् हरिरमोमुचदोस्त्रियाणाम्।